तस्य तद्वचनं श्रुत्वा वालिसो नुरभाषत अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः समीपं गन्तुमस्माभिः राघवस्य महात्मनः दृष्टा देवी न चानीत इति तत्र निवेदनम् अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः नैनः प्लवने कश्चित् नापि कश्चित् पराक्रमे तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः तेष्वेवं हतवीरेषु राक्षसेषु हनूमता किमन्यदत्र कर्तव्यं गृहीत्वा यामजानकीं रामलक्ष्मणयोर्मध्ये न्यस्यामजनकात्मजां किं व्यलीकैस्तुतान् सर्वान् वानरान् वानरऋषभान् वयमेव हि गत्वा तान् हत्वा राक्षसपुङ्गवान् राघवं द्रष्टुमर्हामः सुग्रीवं स लक्ष्मणं तमेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः उवाच परमप्रीतः वाक्यम् अर्थवदर्थमिति नैषा बुद्धिर्महाबुद्धे यद्ब्रवीषि महाकपे विचेतुं वयमाज्ञप्ताः दक्षिणां दिशमुत्तमां नानेतुं कविराजेन नैव रामेण धीमता कथञ्चिन्निर्जितां सीताम् अस्माभिर्नाभिरोचयेत् राघवो नृपशार्दूलः कुलं व्यपदिशन् स्वकं प्रतिज्ञाय स्वयं राजा सीता विजयमकृतः सर्वेषां कविमुख्यानां कथं मिथ्या करिष्यति विफलं कर्म च कृतं भवेत् तुष्टिर्न तस्य च वृथा च दर्शितं वीर्यं भवेद्वानरपुङ्गवाः तस्माद् गच्छाम वै सर्वे यत्र रामः स लक्ष्मणः सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने न तावदेषामतिरक्षमाणः यथा भवान् पश्यति राजपुत्रः यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धिं न तावदेषामतिरक्षमाणः यथा भवान् पश्यति राजपुत्रः यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यति कार्यसिद्धिम् इत्याशे श्रीमद् रामायणे वाल्मीकि आदिकाव्ये चतुर्विंशसहस्रिकायां संहितायां सुन्दरकाण्डे षष्टितमः सर्गः।